इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। निर्वाचन आयोगेन विशेष गहन पुनरीक्षण अभियानस्य अन्तर्गतं मध्यप्रदेशस्य कृते अपि प्रारूप मतदात्री सूची प्रख्यापिता। आपत्तयः जनवरी 22 यावत् अभियाचिताः सन्ति। ध्येयम् अस्ति यत् निर्वाचन आयोगेन सार्धैकमासपर्यन्तं गृहे गृहे विशेष गहन पुनरीक्षण अभियानस्य अनन्तरं मध्यप्रदेशस्य प्रारूप मतदात्री सूची प्रख्यापिता। एषा सूची राज्यस्य सर्वेभ्यः 30+200 विधानसभासनेभ्यः प्रकाशिता अस्ति। सर्वेषु मतदानकेन्द्रेषु च उपलब्धा अस्ति। अस्यां प्रक्रियायां मृतकाणां, स्थानान्तरितानाम्, अनुपस्थितानां, मुधा मतदातॄणां, जनानां च नामानि अपाकृतानि सन्ति। येषां विद्यमानानां मतदातॄणां नामानि सूच्यां नैव समाविष्टानि ते आवश्यक प्रपत्रैः साकं जनवरी 22 यावत् आपत्तिं पञ्जीकर्तुम् अर्हन्ति। अन्तिम मतदात्री सूची आगामिनः वर्षस्य फरवरी 21 यावत् प्रख्यापयिष्यते। युगपद एव केरलस्य, छत्तीसगढ़स्य, अंडमान निकोबारस्य च प्रारूप सूचिका अपि प्रख्यापयिष्यते। कृषि मंत्री शिवराज सिंह चौहानः प्रोक्तवान् यत् कृत्रिम बीजानां, उर्वरकाणां, मिश्रित उर्वरकाणां च विक्रयणं नियन्त्रयितुं सर्वकारः कठोर विधेयकं प्रवर्तयितुं सज्जः अस्ति। राजस्थानस्य नागौर मण्डले कृषक सम्मेलने वदन चौहानः अवदत् यत् संसदस्य आगामिनि सत्रे द्वौ नूतनौ विधेयकौ प्रस्तावितौ भविष्यति। भविष्यतः श्रीचौहानः अवदत् यत् प्रशासनं प्रधानमन्त्री फसल बीमा योजनायां येऽपि दोषाः सन्ति तान् दूरीकर्तुम् अपि कार्यं कुर्वदस्ति।
प्रधानमंत्री फसल बीमा योजना में जहाँ जहाँ जो कमियाँ थी उन कमियों को दूर करने का प्रयास कर रहे हैं। कई बार बीमा कंपनियां बहुत देर करती थी क्लेम देने में, अब हमने तय किया बीमा कंपनी अगर देर करेगी क्लेम सेटल होने के 21 दिन के बाद एक दिन भी देर बीमा कंपनियों ने की तो 12% ब्याज किसान को देना पड़ेगा।
गृह मंत्री अमित शाह अद्य पंचकुला यात्रायै प्रस्थास्यति। पंचकुलायाम् आरक्षी उपायुक्ता सृष्टि गुप्ता प्रावोचत् यत् अमितशाहस्य यात्रां निधाय जनपदे सुरक्षायां व्यापिका सज्जता जाता। गृहमंत्री सहकारिणी क्षेत्रे एकस्मिन् सम्मेलने हरियाणा आरक्षिणः पासिंग आउट परेड इत्यत्र पूर्व प्रधानमन्त्रिणः अटल बिहारी वाजपेयिनश्च प्रतिमायाः अनावरणेन सह अनेकेषु आधिकारिकेषु कार्यक्रमेषु भागं स्वीकरिष्यति। ओडिशायाः मुख्यमंत्री मोहन चरण मांझी यः अघोषयत् यत् राष्ट्रिय पैसा महोत्सवस्य अवसरेषु राज्यस्य सर्वेषु पंचायत क्षेत्रेषु विशेषतः ये 96+59 अधिनियमस्य अन्तर्गते ये आगच्छन्ति पैसा इत्यस्य अन्तर्गते ये आगच्छन्ति विशेष ग्रामसभानां आयोजनं तत्र भविष्यति। भारतीय अंतरिक्ष अनुसंधान संघटनम् अद्य प्रातः 45:08 न्यू स्पेस इंडिया लिमिटेड इत्यनेन LVM3M6 मिशन इत्यस्य अन्तर्गतं ब्लू बर्ड ब्लॉक 2 संचार उपग्रहस्य प्रक्षेपणं विधास्यते। इदं प्रक्षेपणं श्रीहरिकोटा इत्यत्र सतीश धवन अंतरिक्ष केन्द्र द्वितीयस्मात् प्रक्षेपणस्थलात् भविष्यति। दिल्ली विधानसभायां शीतकालिकं सत्रं जनवरी मासस्य 5 दिनांकात् भविष्यति इति वार्ताः।